भक्तिः इष्टा न विभक्तिः। लेखकः श्रीपद्मनाभः। केरलप्रदेशे अङ्गाटिपुरं नाम कश्चन ग्रामः आसीत्। तत्र पूंतानं नम्बूदिरिः इति कश्चन निवसति स्म। सः न पण्डितः, परं महान् भक्तः आसीत्। भगवतः आराधनेन एव सः जीवनं यापयति स्म। बहुकालपर्यन्तम् अस्य अपत्यमेव न आसीत्। कानिचन वर्षाणि अतीतानि। भगवतः कृपया पूंतानस्य पत्नी पुत्रं प्रसूतवती। दम्पत्योः आनन्दस्य सीमा एव न आसीत्। बालः यदा एकवर्षीयः जातः, तदा पूंतानं तस्य अन्नप्राशनकार्यक्रमम् आयोजितवान्। तदर्थं ग्रामजनाः सर्वे, बान्धवाश्च निमन्त्रिताः आसन्। बहवः आगताः अपि। अन्नप्राशनमुहूर्तः रात्रौ आसीत्। सायंकाले रुदन्तं शिशुं पूंतानस्य पत्नी एकस्मिन् प्रकोष्ठे कोणे शायितवती। शिशुः तत्रैव निद्रामग्नः अभवत्। रात्रौ गृहमागताः केचन बान्धवाः अतिथयश्च तमेव प्रकोष्ठं गत्वा तत्र स्ववस्त्रभाण्डादिकं तस्मिन्नेव कोणे स्थापितवन्तः, यत्र सः शिशुः शयानः आसीत्। मन्दप्रकाशे तैः शिशुः न लक्षितः एव। अतः बहूनि वस्तूनि शिशोः उपरि एव स्थापितानि अभवन्। मुहूर्तः सन्निहितः। माता पुत्रं नेतुं प्रकोष्ठमागतवती, परं हा हन्त, किं पश्यति सा तत्र? शिशुः वस्त्रबन्धानाम् अधः आसीत्। झटिति सर्वम् अपसार्य सा शिशुम् उन्नीतवती। अहो, तावता सः शिशुः मृतः एव आसीत्। तज्ज्ञात्वा सा मूर्छावस्थां प्राप्तवती। आगताः सर्वेपि जनाः दुःखेन प्रतिगतवन्तः। पुत्रस्य मरणानन्तरं पूंतानं सर्वदा ध्यानं जपं च कुर्वन् देवसेवायामेव सम्पूर्णतया मग्नः अभवत्। अधिकतया सः गुरुवायुरुग्रामे एव कालं यापितवान्। तस्मिन्नेव समये पूंतानं सन्तानगोपालः इति ग्रन्थं रचितवान्। परं स्वस्य व्याकरणज्ञानं नास्ति इति सः जानाति स्म। नारायणीयग्रन्थस्य कर्ता भट्टतिरिः तदा अतीव सुप्रसिद्धः आसीत्। अतः पूंतानं स्वकीयं ग्रन्थं परिशोधनाय भट्टतिरेः समीपं नीतवान्। महापण्डितः भट्टतिरिः तस्य ग्रन्थम् अदृष्ट्वा एव तम् उपहसन् उक्तवान्, भोः, भवतः भाषाज्ञानं नास्ति, व्याकरणज्ञानं तु सर्वथा नास्ति एव, अतः भवता लिखितं सर्वम् अशुद्धमेव भवति, तस्य दर्शनेन किं प्रयोजनम् इति। भट्टतिरेः वचनात् अपमानितः पूंतानं लज्जया खेदेन रोदनम् आरब्धवान्। तावती काले अशरीरवाणी श्रुता, भोः, भट्टतिरेः विभक्तेः अपेक्षया पूंतानस्य भक्तिः एव मम इष्टा इति। एतेन लज्जितः भट्टतिरिः पूंतानं क्षमां प्रार्थितवान्। ततः बहुकालपर्यन्तं पूंतानं गुरुवायुरुक्षेत्रे जीवनं कृत्वा अन्ते भगवतः सान्निध्यं प्राप्तवान् इति।